अथैकादशोऽध्याय सूत उवाच आनर्तान् सौपब्रज्य स्वृद्धान् जानपदान् स्वकान् दद्मौ दरवरम् तेषाम् विषादम् शमयन्निव स उच्चकाशे धवलोदरोदरोऽप्यरुक्रमस्याधर्षोणशोणिमा दाद्मायमान करकञ्ज सम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः तमुपश्रुत्य निनदम् जगद्भयभयापवम् प्रत्युद्ययुः प्रजाः सर्वात् भर्तृदर्शनलालसाः तत्रोपनीतवलयोरवेर्दीपमिवाद्रिताः आत्मा रामम् पूर्णकामम् निजलाभेन नित्यदा प्रीत्युत्फल्लमुखा प्रोचुर्हर्षगद्गदया गिरा पितरम् सर्वसुहृदम् अवीतारमिवार्भकाः नतास्मतेनाथ सलाङ्ग्रिपङ्कजम् विरञ्च वैरिञ्च सुरेन्द्रवन्दितम् परायणम् क्षेमम् येच्छताम् परम् यनयत्र काल प्रभवेत् पर प्रभु भवायनस्त्वम् भव विश्वभावन त्वमेव माताथ सुहृत्पतिपिता त्वम् सद्गुरुर्न परमम् च दैवतम् यस्यानुवृत्त्या कृतनो बभूविम अहो सनाथा भवता स्मयद्वयम् त्रैविष्टपानामपि दूरदर्शनम् प्रेमस्मित स्निग्ध निरीक्षणाननम् पश्येन रूपम् तव सर्वसौभगम् यर्यम्बुजाक्षापससारभो भवान् कुरून्मधुन्वात सुहृद्दिदीक्षया तत्राब्दकोटि प्रतिमक्षणो भवेत् रविम् विनाक्ष्णोरिव नस्तवाच्युत इति चोदीरितावाच प्रजानाम् भक्तवत्सल शिण्वानोऽनुग्रहम् दृष्ट वितन्वन् प्राविशत् पुरीम् मधुभोजदशार्हार्व कुक्कुरान्धकवृष्णिरी आत्मतुल्यबलैर्गुप्ताम् नागैर्भोगवतीमिव सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमै उद्यानोपवनारामैर्भृतपद्माकरश्रियम् गोपुरद्वारमार्गेषु कृतकौतकतोरणाम् चित्रध्वजपताकाग्रैरन्तः प्रतिहतात् सम्मार्जित महामार्ग रथ्यापणक चत्वराम् सिक्ताम् दग्धजले रूप्ताम् बल पुष्पाक्षताङ्कुरैः द्वारि द्वारि गृहाणाम् च दध्यक्षत फलेक्षुभिः अलङ्कृताम् पूर्णकुम्भैर्बलिभिर्धूपदीपकैः निशम्य प्रेष्ठमायान्तम् वसुदेवो महात्मना अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः प्रद्युम्नश्चारुदेष्णश्च साम्बोजाम्बवती सुतः प्रहर्षवेगोच्छसित शयनासन भोजनाः वारणेन्द्रम् पुरस्कृत्य ब्राह्मणैः सह सुसुमङ्गलैः शङ्खतुर्यनिनादेन ब्रह्मघोषेण चादृताः प्रत्युज्जग्मूरथैरिष्टा प्रणयागत साध्वसाम् वार्मुख्याश्च शतशो यानैस्तद्दर्शनोत्सुका लसत्कुण्डल निर्भात कपोल वदन श्रिय नट नर्तक गन्धर्वा सूतमागध वन्दिन गायन्ति चोत्तम श्लोक चरितान्यद्भुतानि च भगवांस्तत्र बन्धूनाम् पर्वाणाम् अनुवर्तिनाम् यथा विद्युपसङ्गम्य सर्वेषाम् मानमाददे प्रव्वाभिवादनाश्च करस्पर्शस्मिते क्षणैः आश्वासे चाश्वपाकेभ्यो वरिश्चाभिमतैर्विभुः स्वयम् च गुरुभिर्विप्रैः सदारैस्थभिरैरपि आशीभिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् राजमार्गम् गते कृष्णे द्वारिकाया कुलस्त्रिय हर्म्यान्यारुरुभिप्र तदीक्षणमहोत्सवाः नित्यम् निरीक्षमाणानाम् तदपि यदपि कौ द्वारकौकसाम् नैव तृप्य ईदृश श्रियो धामाङ्गमच्युतम् श्रियो निवास यस्योर पानपात्रम् मुखम् दृशाम् बाहवो लोकपालानाम् सारङ्गाणाम् पदाम्बुजम् सितातपत्रव्यजनैरुपस्कृत प्रसूनवर्षैरभिवर्षित पति पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचाप वैद्युतैः प्रविष्टस्तु गृहम् पित्रो परिष्वक्त स्वमातृभिः ववन्दे शिरसा सप्त देवकी प्रमुख मुखा मुदा ताः पुत्रमंकमारोप्य स्नेहस्नुतपयोधरा हर्ष विवलितात्मान शिशिशूर नेत्र दैर्जलैः यथा विशत्स्व भवनम् सर्वकामम् अनुत्तमम् प्रासादा यत्र पत्नीनाम् सहस्राणि च षोडश पत्न्यः पतिम् प्रोष्य गृहानुपागतम् विलोक्य सञ्जातमनो मनोत्सवाः उतस्थुरारात् सहसासनाशयात् साकम् व्रतैर्वीडितलोचनाननः तमात्मदैर्दृष्टिभिरात्मनात्मना दुरन्तभावा परिभ्रेभिरे पतिम् निरुद्धमप्याश्रवदम्बुनेत्रयोर्विलज्जतीनाम् भृगुवर्यवैक्लवात् यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि तस्याग्रियुगम् नमम् नमम् पदे पदे काविरमेत तत्पदाच्चलापि यच्छ्रीर्न जाति कर्णचित् एवम् नृपाणाम् क्षितिभारजन्मनाम् अक्षोहिणीभिः परिवृत्त तेजसाम् विधाय वीरम् श्वसनो यथानलम् मिथो वधेनो परतो निरायुधः स एष नर्लोकेऽस्मिन् नवतीर्णः स्वमायया रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा उदाम भावपि सुना मलवल्गुवास व्रीडावलोक निहतो मदनोऽपि आसाम् सम्मूह्य चापमजः प्रमदोत्तमास्ता यस्येन्द्रियम् विमथितुम् कुहकैर्न शेकुः तमयम् मन्यते लोको य सङ्गम् अपि सङ्गिनम् आत्मौपम्येन मनुजम् व्यापृण्वानम् यतो बुधः तदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः न युज्यते तदा सदात्मस्थैर्यथा बुद्धिस्तदाश्रयाः तम् मे निरेयबला मूढा स्नेणम् चानुव्रतम् रथ अप्रमाणविदो भर्तुरीश्वरम् मतयो यथा इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथमस्कन्धे नैमिषेयोपाख्याने श्रीकृष्णद्वारका प्रवेशो नामैकादशोऽध्यायः।